इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुरुषोत्तम शर्मा। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना समुदीरितं यत् भारतं एतादृशम् अपूर्वम् एआई प्रारूपं प्रस्तुयात् येन भारते निर्मितं विश्वाय निर्मितम् इत्यस्य भावना प्रतिबिम्बिता भवेत्। गतदिने भारतीय कृत्रिम बुद्धिमत्ता नवोद्योगैः सह राउंड टेबल इत्याख्यस्य सम्मेलनस्य प्रधानमन्त्री नरेन्द्रमोदी अध्यक्षतां कृतवान्। अग्रिमे मासे भारते आयोक्ष्यमाणात् ऐषमो भारतीय कृत्रिम बुद्धिमत्ता प्रभाव शिखर सम्मेलनात् पूर्वं द्वादश भारतीय कृत्रिम बुद्धिमत्ता नवोद्योगाः ये एआई फॉर ऑल ग्लोबल इम्पैक्ट चैलेंज इति वैश्विक प्रभाव समाह्वान कार्यक्रमाय योग्यतां प्राप्तवन्तः ते सम्मेलनेऽस्मिन् भागं निरवहन्। सभायां ते स्वविचारान् स्वकार्याणि च प्रस्तुतवन्तः। एताः नवोद्योग संस्थाः व्यक्तिगत विषयवस्तु भारतीय भाषा आधारित प्रतिरूपस्य ई वाणिज्यस्य विपण्याः उत्पाद कृत्रिम बुद्धेः च उपयोगेन 3D विषयवस्तु निर्माणम् अभियान्त्रिक अनुकरणानि स्वास्थ्यसेवायां निदानं चिकित्सानुसन्धानं च इत्यादिषु विविधेषु क्षेत्रेषु कार्यं कुर्वन्ति। सभायां प्रधानमन्त्री अवदत् यत् अग्रिमे मासे भारतं भारतीय कृत्रिम बुद्धि प्रभाव शिखर सम्मेलनस्य आतिथ्यं करिष्यति। श्रीमोदी सबलं उक्तवान् यत् नवोद्योगाः कृत्रिम बुद्धिमत्ता उद्यमिनः च भारतस्य भविष्यस्य सह निर्मातारः सन्ति, अपि च देशे नवान्वेषणस्य बृहदाकार कार्यान्वयस्य च बह्व्यः सम्भावनाः सन्ति। रेलमन्त्री अश्विनी वैष्णवः अद्य राजधान्यां नवदिल्ल्यां 70तमान् अतिविशिष्ट सेवा पुरस्कारान् प्रदास्यति। विगतवर्षे विशिष्ट सेवा प्रदातृभ्यः 100 रेलविभागाधिकारिभ्यः इमे पुरस्काराः प्रदास्यन्ते। पुरस्कार समारोहे रेलराज्यमन्त्रिणौ वी सोमन्ना, रणवीत सिंहः, रेलवे बोर्ड इत्यस्य प्रमुख कार्यकार्यधिकारी सतीश कुमारः, अन्ये च गणमान्याः अपि उपस्थिताः भविष्यन्ति। केन्द्रीय गृहमन्त्रिणा अमितशाहेन उक्तं यत् प्रशासनं जम्मू कश्मीरे शान्ति स्थायीं स्थापयितुम् आतंकवादं च समुन्मूलयितुं च प्रतिबद्धम् अस्ति। गृहमन्त्री गतदिने राजधान्यां नवदिल्ल्यां जम्मूकश्मीरस्य सुरक्षा समीक्षोपवेशनस्य अध्यक्षताम् अकरोत्। श्रीशाहेन उक्तं यत् आतंकवाद संरचनाम् आतंकवाद वित्तपोषणं च विरुध्य अभियानं सततं प्रवर्तते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वयुतस्य प्रशासनस्य नियन्तर प्रयासैः जम्मूकश्मीरे आतंकवादः पंगुतन्त्रं संजातम्। गृहमन्त्रिणा जम्मूकश्मीरस्य सुरक्षास्थितेः दृढतायै सुरक्षाभिकरणानि प्रशंसितानि। पथ परिवहन राजमार्ग मन्त्री नितिन गडकरी अवोचत् यत् प्रधानमन्त्री नरेन्द्रमोदी शीघ्रमेव मार्ग दुर्घटना पीडितेभ्यः कैशलेस इति रोक्करहित चिकित्सोपचार योजनाम् आरप्स्यति। पथ परिवहन राजमन्त्रिणा नितिन गडकरी वर्येण गतदिने राजधान्यां नवदिल्ल्यां समेषां राज्यानां केन्द्रशासित प्रदेशानां च परिवहन मन्त्रिणां परिवहन विकास परिषदः च त्रिचत्वारिंशोपवेशनस्य अनन्तरं वार्ताहर सम्मेलने एतद् विवरणम् उपस्थापितम्। तेनोक्तं यत् अस्यां योजनायां मार्ग दुर्घटना पीडितेभ्यः न्यूनातिन्यूनं 7 दिवसेभ्यः 1,50,000 रूप्यकाणां रोक्करहित चिकित्सोपचारः प्रदास्यते। मार्ग दुर्घटना पीडितान् चिकित्सालयं प्राप्तवद्भ्यः सहायकर्तृभ्यः 25,000 रूप्यकाणां पुरस्कारः प्रदास्यते। श्रीगडकरी अवोचत् यत् इयं परियोजना उत्तरप्रदेश हरियाणा पंजाब चण्डीगढ़ राज्यानि समेत्य विविध राज्येषु केन्द्रशासित प्रदेशेषु च सफलतापूर्वकं सम्पन्ना जाता। ऐषमो विकसित भारत युवनेत्री संवाद कार्यक्रमः अद्य नवदिल्ल्यां भारत मण्डप प्रांगणे आरभते। चतुर्दिवसीयः अयं कार्यक्रमः सोमवासरे जनवरी 2 पूर्णो भविष्यति। अस्मिन् कार्यक्रमे देशविदेशेभ्यः 2,000+ युवानः सम्मिलिताः भविष्यन्ति। युवक्रीडा प्रकरणानां मन्त्री मनसुख मांडविया अवोचत् यत् इमे सर्वेऽपि जनाः भारताय विचारविमर्शं करिष्यन्ति। इति वार्ताः।